रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीतायाः पतये नमः। नमस्कारः प्रियाः श्रोतारः, संस्कृत साप्ताहिकी इत्येतस्मिन् कार्यक्रमे भवतां समेषां हार्दिकं स्वागतम् अभिनन्दनं च। एकं नूतनम् अङ्कम् आदाय उपस्थितास्मि अहं कार्यक्रमस्य सञ्चालिका ऋचा झा। प्रियाः श्रोतृवृन्दाः आगच्छन्तु, आस्वादयामः सर्वप्रथमम् अद्यतनम् सुभाषितम्, तच्च सुस्वरेण प्रस्तौति पुनीत त्रिपाठी।
सर्वमन्यत् परित्यज्य शरीरमनुपालये तद्भावे हि भावानाम् सर्वाभाव शरीरिणाम्। अर्थात संसार से हमें जो भी पुरुषार्थ या कार्य करना है वह हम अपने स्वस्थ शरीर से ही कर सकते हैं, इसके अभाव में हर वस्तु का अभाव हो जाता है। इस प्रकार यह एक सर्वोत्तम धन है, अतः इसकी देखरेख सर्वोच्च प्राथमिकता से करनी चाहिए।
अहो सम्यक्। प्रिय मित्राणि, अग्रे सरामः सम्प्रति प्रसंग प्रभागं प्रति, यत्र अद्य भगवतः श्रीरामस्य भावपूर्णं स्तवनं विदधाति निधिः झा।
ॐ रामो राजमणि सदा विजयते, रामं रमेशं भजे, रामेणाभिहता निशाचर चमु, रामाय तस्मै नमः। रामान्नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहम्। रामे चित्तलयः सदा भवतु मे, भो राम माम उद्धर।
अद्भुतम्। अयि संस्कृतानुरागिणः प्रियाः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विकः वृत्तान्तः। साम्प्रतं संसारे गताः साप्ताहिकी वार्ताः आदाय उपस्थितः अस्ति अस्मदीयः सहयोगी जतिन शर्मा।
पश्चिम एशिया क्षेत्रे संघर्षमालक्ष्य संसद भवने सर्वदलीयोपवेशनं सञ्जातम्। रक्षामन्त्रिणः राजनाथ सिंहस्य आध्यक्ष्ये आयोजिते अस्मिन् सर्वदलीयोपवेशने सर्वकारेण ईरान इज़राइल युद्धस्य पार्श्वभूमौ तैलवातीन्धन आपूर्ति विषये भारतस्य सज्जता प्रकटीकृता। केन्द्रीय मन्त्रिमण्डलेन क्षेत्रीय सम्पर्कं दृढीकर्तुम् उडान 2.0 इत्यस्य योजनायै स्वीकृतिः प्रदत्ता। अस्याः योजनायाः अन्तर्गतं तावत् देशे 100 नूतन विमान पत्तनानां विकासः करिष्यते। संसदा उभयलिङ्गी व्यक्ति संशोधन विधेयकाय स्वीकृतिः प्रदत्ता। बुधवासरे राज्यसभया एतत् विधेयकं ध्वनिमतेन पारितम्। अस्य विधेयकस्य मुख्यमुद्देश्यम् उभयलिङ्गी व्यक्तीनाम् अधिकाराणां सुदृढीकरणं तथा च तेषां सामाजिक समावेशनस्य प्रक्रियायाः सरलीकरणम् इति वर्तते।
मान्याः श्रोतारः, श्रुतः अस्माभिः साप्ताहिक्याः वार्ताः, अतः अग्रे सरामः अधुना ज्ञान विज्ञानाख्ये साक्षात्कार प्रभागे। अस्माभिः साकं संवादाय उपस्थितो अस्ति अस्माकं सहयोगिना सुरेश शर्मणा सह प्रयागराजस्थ केन्द्रीय संस्कृत विश्वविद्यालयस्य सहायकाचार्यः डॉक्टर अंकित मिश्रः। अहो मन्येहम् यत् मिश्र महाभागस्य प्रेरकाणि वचनानि श्रुत्वा सर्वे श्रोतारः निश्चयमेव आप्लाविताः भविष्यन्ति।
काव्य शास्त्र विनोदेन कालो गच्छति धीमताम्, व्यसनेन मूर्खाणाम् निद्रया कलहेन वा। प्रियाः सुरभारती समुपासकाः श्रोतारः, मित्राणि, अतीव हर्षस्य विषयः यत् आकाशवाण्याम् अस्माभिः सह काव्यशास्त्र विषयक संवादाय अद्य विराजन्ते प्रयागराजस्थे गंगानाथ झा परिसरीय केन्द्रीय संस्कृत विश्वविद्यालये सहायकाचार्यः डॉक्टर अंकित मिश्रः। महोदयानां हर्षातिरेकाभिनन्दन वचोभिः आकाशवाणी पक्षतः अहं सुरेश चंद शर्मा हार्दिकम् अभिनन्दनम् स्वागतञ्च वर्तामहे।
धन्यवादाः महोदयाः, भवद्भिः आमन्त्री अतः मया अत्र अगामि। धन्यवादाः।
मान्यवर्याः काव्यशास्त्र सम्बद्ध संवादे सर्वप्रथमः प्रश्नः यत् संस्कृत काव्यशास्त्रस्य प्राचीनतमं नाम किम् इत्येतद् विषये ज्ञातुमुत्सुकाः श्रोतारः।
भवद्भिः उत्तमः प्रश्नः अकारि। संस्कृत भाषायां संस्कृत काव्यशास्त्रस्य प्राचीनतमं नाम काव्यालंकार एवास्ति। यस्मिन् शास्त्रे अस्य सौन्दर्यस्य पर्यालोचनं क्रियते तत् शास्त्रं काव्यशास्त्रम् इत्यभिधीयते। काव्यशास्त्रस्य आदिमे काले एतस्मै काव्यालंकार शब्दस्य प्रयोगः क्रियते स्म। एतस्मादेव हेतोः काव्यशास्त्रस्य आदियुगस्य सर्वे आचार्याः स्वग्रन्थानां नामानि काव्यालंकार इत्यकार्षुः। अलंकारशास्त्रस्य प्रख्यात आचार्यो भामः स्वग्रन्थस्य नाम काव्यालंकार इत्यकार्षीत्। रुद्रटोपि स्वकाव्यशास्त्र विवेचनात्मकस्य ग्रन्थस्य नाम काव्यालंकार सार संग्रहः इत्यकरोत्। रुद्रटस्यापि काव्यशास्त्र विषयकस्य ग्रन्थस्य नाम काव्यालंकार एवास्ति। काव्यशास्त्रमिदं सोत्पत्ति समयादेव नितराम् लोकप्रियताङ्गतं, तस्मादेतत् काव्यालंकार काव्यशास्त्र क्रियाकल्प साहित्य विद्यालंकार शास्त्र साहित्य शास्त्रादि कतिपय नाम भी ससम्मानं सानुरागंच समादृतम् अभूत। काव्यशास्त्रस्यानेक स्वकीय विशिष्टताः विलोक्यैव राजशेखरः शास्त्रमिदं वेदांगमिव मन्यते। सा ब्रूते उपकारकत्वात् अलंकारः सप्तमं अंगमिति रिते च तत्स्वरूप परिज्ञानादेवार्था नवगतिः। सकाव्यशास्त्र शिक्षां स्वतंत्र विद्यामेव न मन्यते, अपितु तर्कत्रयी वार्ता दंड नीति नाम धेयानां चतस्रीणामपि विद्यानां निष्यन्दमम् अवगच्छति। स्वकीयानां काव्यमीमांसायां लिखति सः पंचमी साहित्य विद्या इति यायावरीयाः, सा हि चतस्रीणामपि विद्यानां निस्यन्दः। एवमेव संस्कृत काव्यशास्त्रस्य प्राचीनतमं नाम काव्यालंकार एवास्ति।
ओहो सम्यक् ख्यापितं भवद्भिः। सम्प्रति प्रश्नः यत् यथा सर्वे जानन्ति यत् संस्कृत काव्यशास्त्रे पण्डितराज जगन्नाथस्य नाम बहु प्रसिद्धम्, अतः एतेषाम् आचार्याणां परिचयं वयं ज्ञातुमिच्छामः।
उत्तमा जिज्ञासा। पंडितराज जगन्नाथः सप्तदश ख्रीष्टाब्दस्य मध्यभागे तैलंग्य देशे आधुनिक कर्णाटक प्रदेशे समुत्पत्तिम् लेभे। अयम् आंध्र वेगिनाडी परिवारस्य तैलंगो ब्राह्मणः आसीत्। अस्य पितुर्नाम पेरुभट्टोऽथवा पैरम्भट्टः आसीत्। अस्य मातुर्नाम लक्ष्मीदेव्या आसीत्। अस्य पिता पेरुभट्टः वेदान्तशास्त्रस्य अध्ययनम् ज्ञानेन्द्रभिक्षोः सविधे, न्यायवैशेषिकयोः अध्ययनम् महेन्द्रपण्डितस्य सविधे, पूर्वमीमांसायाः खण्डदेवस्य सविधे, व्याकरणस्य च अध्ययनम् शेषवीरेश्वरस्य सविधे करोति स्म। एतेषाम् सवेषाम् विषयाणाम् अध्ययनम् पण्डितराजः स्वपितुः सविधे स्वपितुः गुरोः वीरेश्वरस्य च सविधे अकार्षीत्। तैलंग्यदेशावयवमुन गुण्डाभिद ग्रामवासी वे जनिति जातीयो जगन्नाथो गोदावरी मण्डलस्य भूषणम् आसीत्। तस्याभिजनम् नाम उपदृष्टा इत्यासीत्। काव्यशास्त्रे पण्डितराज जगन्नाथस्य सर्वापेक्षया अधिका प्रख्यातिः आस्ति। जगन्नाथः दिल्लीश्वरस्य भारतीय यवन शासकस्य शाहजहां नामकस्य सभायाम् आसीत्। शाहजहां नृपतेः पुत्रो दारासिको हास्य पोषकः आसीत्। श्रूयते दिल्ल्याः शाहजहां भारत सम्राजा स्वकीय ज्येष्ठात्मजस्य दारासिकोहस्य संस्कृताध्यापनाय निमन्त्रितः तदर्थं तत्र गतवान् अयं जगन्नाथः। अस्य प्रकर्ष पाण्डित्येन तुष्टो भूत्वा सम्राट एनं पण्डितराज इत्युपाधिदानेन विभूषयामास। युवावस्थायां दिल्लीपतिरेवाश्रये जीवनं व्यतीत्यान्ते मधुपुर्व्याम् इत्युक्ते मथुरायां स्वकीयां वसतिम् अलंकरोदयं पण्डितराजः। एवमेव पण्डितराजजगन्नाथस्य परिचयः।
सम्यक् महोदयाः, सम्प्रति प्रश्नाः यत् पण्डितराजजगन्नाथस्य प्रसिद्धाः ग्रन्थाः के सन्ति तेषां प्रसिद्धग्रन्थानां विषये कृपया ज्ञापयन्तु।
साधु, पण्डितराजस्य बहवः ग्रन्थाः वर्तन्ते। तेषु सन्ति गङ्गालहरी द्विपञ्चाशत् पद्यबद्धा गङ्गास्तुतिः, सुधालहरी द्वात्रिंशत् पद्यात्मिका सूर्यस्तुतिः, अमृतलहरी एकादश श्लोकमिता यमुना प्रशस्ति, करुणालहरी चतुष्षष्टि श्लोकमिता विष्णुस्तुतिः, लक्ष्मीलहरी एकचत्वारिंशत् पद्यात्मिका लक्ष्मीस्तुतिः, यमुना वर्णन चम्पूः नाम व्याख्यात विषया, आसफ विलासः आसफ खा महोदयस्य प्रशस्तिः, प्राणाभरणम् कामरूपाधीशस्य प्राणनारायणस्य प्रशस्तिः, जगदाभरणम् उदयपुराधीश राजा कर्णसिंहसूनोर् जगतसिंहस्य प्रशस्तिः, चित्रमीमांसा खण्डनम् अप्पयदीक्षितस्य चित्रमीमांसा ग्रन्थस्य आलोचना, मनोरमा कुचमर्दनम् सिद्धान्तकौमुदी टीकाया मनोरमायाः खण्डनम्, भामिनी विलासः कवितासङ्ग्रह, रसगङ्गाधर अपूर्णः अति प्रौढः अलङ्कार शास्त्रीय ग्रन्थः, दिल्ली निवास समय एव हि जगदाभरणा नामिकाम् प्रशस्ति परक ग्रन्थम् तथा आसफ विलास नामिकाम् अपि दारासभासद नवाब आसफ खान नाम्नश्च प्रशस्तिम् उपनिबद्धवानयम् पण्डितराजः जगन्नाथः। अयम् हि विद्वान् यत्र तत्र काव्य प्रकाशादि प्रमुख ग्रन्थानाम् अति विशिष्ट भाषया खण्डनम् चकार, किञ्च कुवलयानन्द चित्रमीमांसादि कर्तुः अप्पय दीक्षितस्य तु जातिगतम् वैमनस्य माधाय प्रतिपदम् खण्डनम् चकार पूर्ण पाण्डित्य गर्वेण, यच्चकार कुचमर्दनीम् कृत्वा भट्टोजी दीक्षित मनोरमाम् खण्डनम् तत्तु प्रक्रिया प्रकाश कर्तुः वीरेश्वर गुरोर मनोरमायाम् खण्डनम् दृष्ट्योय। एवमेव पण्डितराजस्य जगन्नाथस्य प्रमुखाः ग्रन्थाः।
मान्यवर्याः, संवाद प्रभागस्य अन्तिमे अंशे अस्माकं श्रोतारः पण्डितराजजगन्नाथस्य कालखण्ड विषये ज्ञातुमिच्छन्ति, कृपया ज्ञापयन्तु।
उत्तमम्। पण्डितराजस्य जगन्नाथस्य कालः भारतवर्षस्य सम्राजः शाहजहां तथास्य ज्येष्ठपुत्रः दारासिकोहस्य च समसामयिकत्वात् पण्डितराजस्य जगन्नाथस्य समयोऽपि सम्यक्तया निश्चेतुम् शक्यः। शाहजहां भारतस्य मुगल सम्राट् आसीत्। प्रचण्ड पाण्डित्य समन्विते स्वकीये रसगङ्गाधरे शाहजहां सम्राजः प्रशंसायाम् पद्यमेकम् प्रदत्तमेभिः, तद्यथा भूमिनाथ शाह बुद्धिन भवतः तुल्यो गुणानाम् गणै रेतद्भूत भव प्रपञ्च विषये नास्तीति किम् ब्रूमहे, धाता नूतन कारणैर्यदि पुनः सृष्टिम् नवाम् भावयेत् न स्यादेव तथा पितावकतला लेशम् दधानो नरः। अपि च दारासिकोहस्य प्रशंसायाम् एषाम् जगदाभरण नामकम् काव्यमेवास्ति। शाहजहां सम्राजः परिपन्नायकस्य नवाब आसफा खा इत्यस्य आश्रयेऽपि कतिचित् दिनानि व्यतीतानि। अस्य नायकस्य अवसानः 1641 ईस्वीये काले अभूत्। तद्दुःखे दुःखितोऽयम् पण्डितराजः जगन्नाथः आसफ विलास नामकः ग्रन्थो लीलिखत्। अतः पण्डितराजजगन्नाथस्य कालः 17 शताब्द्या मध्यभागः सिद्ध्यति। एवमेव पण्डितराजस्य जगन्नाथस्य कालः।
महोदयाः, काव्यशास्त्रविषयकसंवादे भवद्भिः ख्यापितैः शास्त्रविद्वद्वचोभिः वयम् अनुगृहीताः। भवता संवादाय अत्र स्वीय बहुमूल्यसमयः कल्पितः। पौनःपुन्येन भवद्भ्यः हार्दाः धन्यवादाः, सादरं प्रणामाः, नमो नमः। जयतु भारतम्, जयतु संस्कृतम्।
गृहीतोऽस्मि। कार्यक्रमस्य संयोजकेभ्यः डॉक्टर सुरेश चंद्र शर्म महोदयेभ्यः धन्यवादाः, यतोहि मह्यं वार्तायाः कृते अवसरः प्रदायि। आकाशवाणीं प्रति अन्ये च कार्यकर्तृभ्यः धन्यता वचांसि व्याहरामि। जयतु संस्कृतम्, जयतु भारतम्।
अयि श्रोतारः आगच्छन्तु संस्कृत दिग्दर्शन प्रभागे, यत्र विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीया सहयोगिनी साधना शर्मा।
संस्कृत भारती विद्वत् परिषदा गृह गृह रामायणस्य अभियाने रामनवम्याः अवसरे 27 मार्चतः वर्षपर्यन्तं रामायण पाठस्य शुभारम्भः क्रियते। अष्टवर्षीयः बालकः श्रीमद्भगवद्गीतायाः अष्टाध्याय्याश्च शुद्ध कण्ठस्थ पाठम् अकरोत्। सहैव प्रोग्रामिंग कौशलेन सह संस्कृत ज्ञान विज्ञानयोः समन्वयं दर्शितवान्। केन्द्रीय संस्कृत विश्वविद्यालयेन संस्कृत विमर्श पत्रिकायाः भारतीय भाषा परिवार विषयकं प्रकाशनं कृतम्। फैकल्टी एक्सलेंस अवार्ड इत्यस्य अंतर्गतं विविधेषु क्षेत्रेषु विदुषां सम्मानस्य घोषणा कृता। इलाहाबाद विश्वविद्यालये ऋषि व्याख्यानमालायां आधुनिक संस्कृत काव्य विषये व्याख्यानं सम्पन्नम्। गुजरात राज्ये सोमनाथ संस्कृत विश्वविद्यालये 26-27 शैक्षणिक सत्राय प्रवेश प्रक्रिया प्रारब्धा। जर्मनी ऑस्ट्रेलिया देशयोः स्पोकन संस्कृत स्प्रिंग कैंप इत्यस्य आयोजनं जातम्। वैश्विक संस्कृत फोरम इत्यत्र महिला विदुषी सम्मेलनानि च प्रचलन्ति।
प्रियाः संस्कृत समाराधिकाः, अद्य बालवल्लरी प्रभागे अस्माकं सहयोगिना गणेश हेगडे इत्यनेन प्रस्तूयते एका मनोविनोदकरा रुचिकरा च कथा।
कथायाः शीर्षकम् अस्ति वानरस्य चातुर्यम्। नदीतटे एकस्मिन् जम्बूवृक्षे एकः रक्तमुखः नाम वानरः प्रतिवसति स्म। सः जम्बूफलानि खादति स्म। नद्याः जले एकः मकरः तस्य मित्रमासीत्। तं मकरमपि जम्बूफलानि खादयति स्म। एकदा मकरः स्वपत्न्यै अपि जम्बूफलानि नीत्वा अयच्छत्। मधुराणि जम्बूफलानि खादित्वा मकरस्य पत्नी प्राह, अहो मधुराणि जम्बूफलानि, एतानि फलानि खादित्वा वानरस्य हृदयमपि अतिमधुरं स्यात्। तर्हि आनय तस्य मित्रस्य हृदयम्। मकरः तीरम् आगत्य वानरम् अवदत्, बन्धो तव भ्रातृजाया त्वाम् गृहे निमन्त्रयति, अहम् त्वाम् पृष्ठे धृत्वा गृहम् नेष्यामि। वानरः तथा एव अकरोत्। नदी मध्ये आनीय मकरः वानरम् अवदत्, मित्र मम पत्नी तव मधुरम् हृदयम् खादितुम् इच्छति। हतोहम् इति चिन्तयित्वा वानरः किञ्चिदिव विचार्य अवदत्, हृदयं तु वृक्षस्य कोटरे निहितमस्ति, अतः माम् तत्र नय, येन स्वहृदयम् आनीय स्वभ्रातृजायाम् तोषयामि। मूर्खः मकरः वानरम् पुनः वृक्षसमीपम् अनयत्। वानरः उत्प्लुत्य वृक्षम् आरुह्य अवदत्, धिक् मूर्ख, त्वम् मित्रेण सह विश्वासघातम् अकरोः, आवयोः मैत्री समाप्ता इति। अनेन उच्यते अन्योपि बुद्धिमान् लोके मुच्यते महतो भयात् इति।
अहो मनोरञ्जनी ज्ञानवर्धनी च एषा कथा। मान्याः श्रोतारः, अग्रिमः प्रभागो अस्ति एकता द्योतकम् एकम् भारतम् श्रेष्ठम् भारतम् इति, यत्र सुषमा कुमारी प्रस्तौति महावीर जयन्तीम् आलक्ष्य संस्कृत हिंदी भोजपुरी भाषासु कानिचन वाक्यानि।
प्रथमं वाक्यमस्ति, महावीर जयंती पवित्रः उत्सवः अस्ति। हिंदी भाषा में महावीर जयंती एक पवित्र त्योहार है। भोजपुरी भाषा में महावीर जयंती एगो पवित्र पर्व है। द्वितीयं वाक्यमस्ति, अस्मिन् दिने वयम् महावीरस्य जन्मदिनं स्मरामः। हिंदी भाषा में इस दिन हम महावीर के जन्म को याद करते हैं। भोजपुरी भाषा में एह दिन हमने महावीर के जन्मदिन याद करी ले। तृतीयं वाक्यमस्ति, असौ अहिंसायाः तथा सत्यस्य उपदेशं दत्तवान्। हिंदी भाषा में उन्होंने अहिंसा और सत्य का संदेश दिया। भोजपुरी भाषा में ऊ अहिंसा आ साच के संदेश दिहलन। चतुर्थं वाक्यमस्ति, जनाः तस्य शिक्षाम् अनुसरन्ति। हिंदी भाषा में लोग उनके उपदेशों से प्रेरणा लेते हैं। भोजपुरी भाषा में लोग उनका सिखावल राह पर चले की कोशिश करेला। धन्यवाद।
संस्कृत हिंदी भाषाभ्याम सह भोजपुरी भाषायाः अयम् संगमः स्यात् नूनम् आह्लादकरः ज्ञानवर्धकश्च। अयि श्रोतृजनाः, अधुना तु कालः समायातः प्रस्थान वेलायाः। अग्रिमे सप्ताहे अस्मिन् एव काले अभिनवम् एकमंकम् आदाय पुनः उपस्थास्यामहे। भवेत् तावत् मंगलम्। नमो नमः।